एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां कृते ह्य आराष्टं मतदानं सम्पन्नमस्ति। प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया आराष्टं युगपदेव सम्पन्ने जननिर्वाचने 61% मतदानं सम्भूतमिति ज्ञापयति। आयोगस्य बहादुर भवनस्थिते कार्यालये गतसायं आयोजिते पत्रकार सम्मेलने प्रमुखायुक्तः थपलिया गतसायं यावत् प्राप्तस्य विवरणस्य अनुसारेण 61% मतदानं सम्भूतमिति अज्ञापयत्। प्रमुखायुक्त थपलिया ह्यस्तनावधि प्राप्तस्य विवरणस्य अनुसारेण 61% मतदानं सम्भूतमिति दृष्टं सदपि संख्येयं सम्पूर्ण विवरणस्य प्राप्ते अनन्तरम् ईषद् वर्धिष्यते इति आयोगस्य अनुमानमस्तीति अवोचत्। आयोगेन कतिचित् सामान्या घटना विहाय आराष्ट्रं शान्तिपूर्ण रूपेण उत्साहजनकतया च मतदानं सम्पन्नमिति ज्ञापयता निर्वाचन सम्पादनस्य ऐतिहासिके कार्ये भूमिकां निर्वहता नेपाल सर्वकारं प्रदेश सर्वकारान् स्थानीय स्तरान् निर्वाचनाधिकृतान् स्थानीय प्रशासनम् निर्वाचने संलग्नान् कर्मचारिण सुरक्षाकर्मिण राजनीतिक दलानि प्रत्याशिन मतदातृन् पर्यवेक्षकान् अन्तर्राष्ट्रिय समुदायम् संचार माध्यमान् नैज क्षेत्रम् अन्यानि सर्वाणि क्षेत्राणि समुदायञ्च प्रति आभार व्यक्तो वर्तते। प्रमुखायुक्त थपलिया पञ्चदशसु स्थानेषु मतदानं स्थगितमिति अबोधयत्। प्रमुखायुक्त थपलिया निर्वाचनस्य समये मतदातृणां मतपत्राणां च सुरक्षाया क्रमे भूतम् एकस्य जनस्य मृत्युं प्रति दुःखं व्यक्तवान्। प्रमुखायुक्त थपलिया मतमञ्जुषाणां मतगणनास्थले आनयनानन्तरं दलीय सम्मतिं सन्धार्य काष्ठमण्डपु उपत्यकया सहितेषु क्षेत्रेषु गतरात्रिता एव अन्येषु स्थानेषु सुरक्षितरूपेण मतमञ्जुषाणां संकलनानन्तरं च तत्कालं मतगणनां प्रारब्धुम् आयोगेन निर्दिष्टम् अस्तीति अभासत। प्रधानमन्त्री शेरबहादुर देउवा प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनं शान्तिपूर्णे भयरहिते च वातावरणे निष्पक्ष व्यवस्थितोत्साहपूर्ण रूपेण सम्पन्नमित्यालक्ष्य सर्वेभ्यो धन्यवादं व्याहरति। प्रधानमन्त्रिणा देउवाभिधेन निर्वाचने अत्यन्तम् उत्साहेन संयमेन धैर्येण च सम्मिल्य अमूल्यमतम् अभिव्यक्तमिति कृत्वा सम्पूर्णजनेषु आभार कृतज्ञता च व्यक्तेति। नेपाली कांग्रेस दल कार्यालयस्य मुख्य सचिवेन कृष्णप्रसाद पौडेलेन ह्य प्रकाशिते वक्तव्ये उल्लिखितं वर्तते। प्रधानमन्त्रिणा देउवाभिधेन आवधिक निर्वाचनं लोकतन्त्रस्य अनिवार्य शपथोस्तीति चर्चयता अस्मात् निर्वाचनात् प्राप्स्यमानेन परिणामेन राष्ट्रं स्वाधीनं स्वाभिमानी समुन्नतं च विधाय लोकतान्त्रिक संस्कार संस्कृत्योः आदृतस्य समतामूलक समाजस्य निर्माणाय सहयोगो विधीयते इति विश्वसितम् अस्तीति वक्तव्ये उल्लिखितं वर्तते। शान्तिपूर्णे भयरहिते च वातावरणे निष्पक्षं सुव्यवस्थितं च निर्वाचनं सम्पादयितुं सफलः समृद्धः इति कृत्वा निर्वाचनायोगाय विशेष धन्यवादं व्याहरता। प्रधानमन्त्रिणा देउवाभिधेन निर्वाचनं सफलयितुं बहुरात्रः संलग्नेभ्यः कर्मचारिभ्यः सुरक्षानिकायेभ्यश्च धन्यवादः प्रदत्त इति वक्तव्ये उल्लिखितं वर्तते। त्रिणा देउवाभिधेन निर्वाचने सहभागिनी राजनीतिक दलानि संचारकर्मी मित्राणि राष्ट्रियान् अन्तर्राष्ट्रियाञ्च पर्यवेक्षकाञ्च प्रति हार्दः धन्यवादः आभारश्च व्यक्तौस्ता इति च वक्तव्ये उल्लिखितमस्ति। जियोका नाम्ना जननिर्वाचन पर्यवेक्षण समिति नेपालेन प्रतिनिधिसभायाः प्रदेशसभानां च सदस्यानां निर्वाचनं स्फुटघटनाः विहाय समग्रतः शान्तिपूर्ण रूपेण व्यवस्थित रूपेण च सम्पन्नमस्तीति ज्ञापितं वर्तते। मतदाने अपाङ्गतायुतानां व्यक्तीनां ज्येष्ठ नागरिकाणां सर्वेषां वर्गसमुदाय लिङ्गावस्थानां च मतदातृणाम् उत्साहवर्धक सहभागिता सिद्धिति जियोका समित्या ज्ञापितं वर्तते। शान्तिपूर्ण निर्वाचनस्य सम्पादनाय दलानां प्रत्याशिनां मतदातृणाञ्च व्यवहारः संयमितः सहयोगात्मकः शान्तश्च प्राप्तः इति जियोका समितेः महासचिवः कृष्णमान प्रधानः अवोचत। जियोका समित्या राष्ट्रस्य 37 जनपदानां 50+102 पालिकासु राष्ट्रियस्तरस्य 30 जनपदस्तरस्य 37 स्थानीयस्तरस्य 84+100 पर्यवेक्षकाः परिचालिताः आसन्। पूर्व प्रधान न्यायाधीशेन पूर्व प्रमुख निर्वाचन आयुक्तेन पूर्व मुख्य सचिवेन च सहितेन 10 विशेष पर्यवेक्षक समूहेन प्रदत्तस्य प्रारम्भिक प्रतिवेदनस्य आधारेण जियोका संस्थया एवं निष्कर्ष प्रकाशितोस्तीति उल्लिखितं वर्तते। एवमेव नियोक नाम्न्या राष्ट्रिय निर्वाचन पर्यवेक्षण समित्या निर्वाचनम शान्तिपूर्णम सदपि विगतस्य निर्वाचनस्य अपेक्षायाम मतदातृषु उत्साहे मतदानस्य प्रतिशते च न्यूनता आकलिता वर्तते। नियोक संस्थया निर्वाचनेऽस्मिन् सहस्रम अष्टशतं च पर्यवेक्षकाः परिचालिताः आसन् इति नियोगस्य कार्यकारी निर्देशकः विकल श्रेष्ठः असूचयत्। इन्सेक नाम्न्या संस्थायाः अध्यक्षस्य डाक्टर इन्दिरा श्रेष्ठस्य नेतृत्वस्य समूहेन प्रमुख निर्वाचनायुक्ताय दिनेश कुमार थपलिया विधाय प्रतिनिधिसभायाः प्रदेशसभानां च निर्वाचनस्य पर्यवेक्षणस्य प्रारम्भिकं प्रतिवेदनम् ह्यः सायम् अर्पितमस्ति। निर्वाचन सम्पादनस्य अनुपदमेव इन्सेक संस्थया आयोगस्य परिसरं प्राप्य प्रमुख निर्वाचनायुक्ताय थपलिया इत्यस्मै प्रतिवेदनम् अर्पितम् आसीत्। निर्वाचनस्य अनुगमनाय इन्सेक संस्थया देशस्य सर्वेषु जनपदेषु सप्तशतम् एकपञ्चाशत् च पर्यवेक्षकाः परिचालिताः आसन्। प्रतिवेदनं गृह्णन् प्रमुख निर्वाचनायुक्तः थपलिया मतदातृ शिक्षा पाठ्यक्रमे एव समावेशनीयेति चर्चयन् अष्टाचत्वारिंशद् अधिक द्विसहस्रतम विक्रम वर्षीय जननिर्वाचनाद् एव इन्सेक संस्थया स्वस्य संयन्त्रस्य माध्यमेन सूचनाः संकलय्य निर्वाचनस्य दिने एव स्वस्य प्रतिवेदनं प्रस्तूयमानमस्ति इति आलक्ष्य प्राशंसत्। बाजुरा जनपदे सुरक्षाकर्मिणां गोलिकाघातेन एको मृतः त्रयोजनाः गभीरेण आहताश्च सन्ति। बाजुरा जनपदस्य त्रिवेणी नगरपालिकायाः नगरप्रमुखस्य कर्णबहादुर थापाभिधस्य अनुसारेण त्रिवेणी नगरपालिकायाः सप्तवडा क्षेत्रस्थिते नाटेश्वरी आधारभूत विद्यालये व्यवस्थिते मतदान केन्द्रे प्रहरीणां स्थानीयवासिनां च मध्ये सम्भूते संघर्षे गोलिकाघातेन स्थानीय संजीव ऐडी घटनास्थले एव अम्रियत। गृहमन्त्रालयस्य सचिव विनोद प्रकाश सिंह बाजुरा जनपदस्य त्रिवेणी नगरपालिकायाः सप्तमवडा क्षेत्रस्थिते नाटेश्वरी आधारभूत विद्यालयस्य मतदान केन्द्रे मतमञ्जुषाणाम् अवलुण्ठन प्रारभणानन्तरम् उत्पन्नायाः परिस्थितेः नियन्त्रणस्य क्रमे एको जनः मृतः प्रहरीभिः सह कतिचित् व्यक्तयः आहताश्च सन्तीति अवोचत्। अष्टौ प्रहरिणः अष्टौ निर्वाचन कर्मचारिणश्च परिवेष्ट्य शीलाः प्रहृत्य च मतमञ्जुषाणाम् अवलुण्ठनम् प्रारब्धम् तदनु प्रहरीभिः बाध्यतावशात् स्थितेः नियन्त्रणार्थम् प्रयत्नक्रमे गोलिकाघातेन स्थानीय संजीव ऐडी मृतः इत्यभासत। असौ प्रहरीभिः पूर्णाधिकारे प्राप्ते सत्यपि नितराम् संयमधरणस्य कारणेन महती दुर्घटना नाभूदिति ज्ञापयन् अवदत् घटनायाः अनुसन्धानन्तरम् तथ्यम् सार्वजनिकम् भविष्यति। अत्रान्तरे बाजुरा जनपदस्य सहायक जनपदाधिकारी लोकेन्द्र बहादुर विष्ट तस्याम् घटनायाम् एको जनः मृतः इति सूचयन् आहतौ द्वौ जनौ उद्धृत्य हेलिकाप्टर यानेन सुरक्षित स्थानम् प्रेषितौ स्तः इति अज्ञापयत्। नवलपरासी पूर्व जनपदस्य देवचुली नगरपालिकायाः चतुर्थवडा क्षेत्रे मतमञ्जुषायाः दहनस्य कारणेन निरस्तीकृतं निर्वाचनम् अद्य विधीयमानं वर्तते। मुख्य निर्वाचनाधिकृता उमेश प्रसाद लुइटेल ह्यः स्थगितीकृतं मतदानम् एतस्मिन् क्षेत्रे अद्य प्रातः सप्तवादनात् सायं पञ्चवादनं यावत् विधीयमानम् अस्ति इति अज्ञापयत्।